ॐ श्रीगुरुभ्यो नमः हरिः ॐ गणानान्त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् श्रीविघ्नेश्वराय नमः सोमो वा एतस्य राज्यमादत्ते यो राजा सन्द्राज्यो वा सो मे न यजते देवसु वा मेतानि हवेगुंषि भवन्ति एतावन्तो वै देवानागुंसवाः तदेवास्मै समान् प्रयच्छन्ति तदेनम् पुनः सुवन्ते राज्याय देवसो राजा भवति बहुग्वै बह्वश्वाजै बह्वजाविकायै बहुव्रीहियवाजै बहुमाशतिलायै बहुहिरण्याजै बहुहस्तिकायै बहुदासपूरुषाजै रहिमत्यै पुष्टिमत्यै बहुराजस्पोषाजै राजास्तु राजाधिराजाय प्रसह्य साहिने नमो वयं वै श्रवणाय कुर्महे स मे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः प्रिया आप्त्या अनन्तराजाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः